अभिनवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् वत्सन्नपोर्भाजनिजातम् रिहन्ति मातराः पुनान इन्दवाभरसो मद्यपरः संरयिम् त्वम्बसो निपुष्यसि विश्वानि दाशुषो गृहे त्वन्धियम् मनोजुजम् सृजा वृष्टिर्नतन्यतः त्वम्बसो निपार्थिवा दिव्या च सोमपुष्यसि परिरे जिज्ञुषो यथा धारा सुतस्य धावते ब्रह्मवाडाव्या अब्जजम् वारम् वाजेव सानसिः क्रत्वे दक्षा जनः कवे पवस्व सोमधारज इन्द्राय पातवे सुता मित्राय वरुणाय च पवस्व वाजसा तमः पवित्रे धारज सुतः इन्द्राय सोमविष्टवे देवेभ्यो मधुमत्तमः त्वाम् रिहन्ति मातरो हरिम् पवित्रे अद्रुहाः वत्सम् जातन्न धेनवः पवमानपि धर्मणि पवमानमहिश्रमश्चित्रेभिर्जासि रश्मिभिः शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे वन्द्याञ्च महिव्रत पृथिवीम् चादिजभ्रशे प्रतिद्रापि ममञ्जधाः पवमानमहित्वना